विद्यारम्भं करिष्यामि, सिद्धिर्भवति सदा ध्यायामि संस्कृतं सम्यक्। वन्दे संस्कृतमातरम्, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो। वन्दे संस्कृतमातरम्, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये। वन्दे संस्कृतमातरम्, वन्दे संस्कृतमातरम्।
अग्रे सरतु।
यावता टिप्पण्याः प्रदर्शनं करोति तावता वयं किञ्चित् पुनस्मारणं कुर्मः गतवर्गे पठितानां गद्यपद्यभागानां विषयं सकृत् पश्यामः। सीता यदा आञ्जनेयं वदति इतः त्वया सह गमनं न उचितम्, अनुचितमस्ति, तदर्थं कारणद्वयमपि सा प्रस्तौति। तदा आञ्जनेयः अपि तस्याः अभिप्रायस्य मायामृगेण तव मैथिलीवञ्चितायाः शाखामृगेण पुनरागतिः इति अयुक्तम्। एषा कथापि भुवने वितता यदि स्यात्, का नाम रामधनुष प्रथिता प्रशस्ति। मायामृगेण मारीचेन तव अत्र आनयनं पुनः तव वञ्चनं शाखामृगेण इत्युक्ते हनुमता सह तव प्रतिगमनम् इति यदि भुवने एषा कथा प्रसिद्धा स्यात् तर्हि यदि भुवने एषा कथा प्रसृता स्यात् सर्वत्र तर्हि रामधनुषः किं वैशिष्ट्यं शिष्यते, अतः रामधनुषा एव युद्धे विजयं प्राप्य मम इतः नयनं प्रतिनयनं स्यात् इति सीतादेव्याः कथनमासीत्। तदेव न आञ्जनेयः सीतादेवी श्लाघते, तस्याः चिन्तनं, व्यवहारः, तस्याः उक्तिः, तस्याः वचनं, तस्याः निश्चयः, निर्णयः, तस्याः निर्णयं, तया प्रकटितं चिन्तनं सर्वमपि सः श्लाघमानः वदति। यत् अर्हं रघुकुलस्य तदेव त्वया निश्चितम्, यत्सदृशं ईदृशपरिस्थितौ उत्कृष्ट कुलधर्मचारिणी अथवा पतिव्रता करोति तथैव भवत्या आचरितम्। यत् रावणस्य अपराधस्य या प्रतिक्रिया भवेत् सा एव प्रतिक्रिया त्वया विहिता। कुलवधूशीलस्य यद् अनुकूलं तदेव त्वया कथितम्। क्षत्रियाण्याः क्षत्रियस्त्रियाः वाक् यथा स्यात् तथैव त्वया उक्तम् इति बहुशः प्रशस्य सर्वथा रामलक्ष्मणौ लङ्काम् इमां प्राप्तौ इति विजानीहि इति हनुमान अवदत्। तदा सीता देवी दीर्घं निश्वस्य पुनः निश्चित्य अपि काञ्चित् तादृशीं घटनां तादृशं वृत्तान्तम् आञ्जनेयं श्रावितवती यत् रामसीतयोः अन्तरं सीतारामौ विहाय अन्यः तृतीयः कोऽपि तां घटनां न जानाति। तदेव काकासुरस्य घटना, तद् तां घटनां श्रावितवती। तदा काकासुरं प्रति कुशास्त्रं यत् श्रीरामः ब्रह्मास्त्रं कृत्वा अभिमन्त्र्य प्रेषितवान्, सः च सर्वत्र अटित्वा पितुः इन्द्रस्य सकाशे गत्वा ततः अपि रक्षाम् अप्राप्य सः पुनः श्रीरामस्य शरणे एव आगतः। तदा श्रीरामः तस्य प्राणान् तस्य संहारं न कृतवान्, वधं न कृतवान्, केवलम् एकम् अक्षिमात्रं तस्य नाशितवान्। रामकृपया सः रक्षितः, तस्य प्राणाः रक्षिताः। अतः काकासुरः काकवेषधरः पुनः एषः अपि एकाक्षी जातः किल, अतः तस्य नाम अन्वर्थनाम इति कविः वदति, यथार्थसंज्ञां प्राप्तवान्। नामद्वयं काकस्य अपि भवति, चिरजीवी इति एकनाम, एकाक्षी इति, अयमपि प्राणान् प्राणाः रक्षिताः अस्य, अतः चिरजीवी जातः। पुनः एकमेव नेत्रम् एतस्य नष्टम् इति कारणेन एकाक्षी इति एतस्यापि नाम भवितुमर्हति इत्येवं वयं दृष्टवन्तः। न केवलम् एतत् वृत्तान्तं श्रावितवती, ततः परं चूडामणिम् आत्मनः केशेषु बद्धं चूडामणिमपि आञ्जनेयाय दत्तवती श्रीरामाय दातु। इदानीं टिप्पणी दृश्यते वा भगिनी? अस्तु, चिन्ता मास्तु, एतद् पश्यन्तः अपि वयं पठितुं शक्नुमः। इदानीम् अद्यतनपाठः अस्ति, इदानीं परच्छेदम् एतस्य कृत्वा एव गद्यभागं पठामः।
केशपिनद्धम्
अपरम् इदम् अभिज्ञानमुन्मुच्य सीता देवी किं कृतवती? यदा पूर्व काकासुरस्य घटनां श्रावितवती तदा तादृशी सा अपरम् एकं वस्तु अपि रामाय दातुम् आञ्जनेयस्य सकाशे दातुं सा उद्युक्ता अभवत्। तदा स्वकेशेषु बद्धं शिरोरत्नं चूडामणिः इति आभरणं तत् उन्मुच्य तद् केशेभ्यः निष्कास्य दत्तवती. तत् कीदृशम् आसीत्? केशपिनद्धं, केशेषु बद्धम् आसीत्. कीदृशी सीता तथा कृतवती? द्विगुणितदुर्दशा. इतः पूर्वम् आञ्जनेयस्य सकाशे सा तादृशीं घटनां वर्णितवती यत् दुःखदायकम् आसीत् किल, अतः दायिकां घटनाम् आसीत्. अतः इतोपि तस्याः उद्वेगः प्रवृद्धः, द्विगुणितदुर्दशा, इतोपि उद्विग्नमनाः सती सा एवं कृतवती. परिचितकथास्मरणात्, शोककथास्मरणात् या कथा, तस्यां ग्लानिम् अथवा शोकं ददाति, व्यथां कारयति मनसः. तादृशीं घटनां स्मृत्वा द्विगुणित द्विषा यस्याः सा, तादृशी भूत्वा सा केशेषु बद्धं शिरोरत्नम् उन्मुच्य आञ्जनेयाय ददौ इति अग्रिमश्लोके एतस्य विवरणं दीयते. अग्रिमश्लोकः कः? चूडामणिं कपिवरस्य ददौ दशास्य.
ङ्गी
पूर्वमसौ प्रतस्थे
आदाय तत्प्रणित
सौ प्रतस्थे माणिक्यगर्भवदनोरगतुल्यबाहुः.
माणिक्यगर्भवदनोरङ्गहुः
वदनोरगतुल्यबाहु, वदन उरगतुल्यबाहु. अस्य पदच्छेदः भवति चूडामणिं कपिवरस्य ददौ दशास्य सन्त्रासपुञ्जितरुषाग्निदशां दशं त्रिशाङ्गी आदाय तं प्रणतिपूर्वकं ततस्थे असौ माणिक्यगर्भवदनोरगतुल्यबाहु. अस्य सामान्यमर्थं वदामि. अस्य आञ्जनेयस्य चूडामणिं ददौ दत्तवती, तत् च तां तं चूडामणिं कविः वर्णयति. कीदृशं चूडामणिं दत्तवती इत्युक्ते तद् शिरोरत्नम् अस्ति किल, सम्यक् देदीप्यमानं भवति, तस्मिन् विद्यमानरत्नानि प्रकाशन्ते, द्योतन्ते. अत्र तेषां द्युतिः, कान्तिः कथमस्ति इत्युक्ते तस्य सा कान्तिः कुतः प्राप्तः इत्युक्ते कुतः प्राप्ता इत्युक्ते सीता देव्याः रोषः, कोपः, तदेव सः एव कोपः, सञ्चितः कोपः इदानीम् अग्निरूपं प्राप्य तस्मिन् शिरोरत्ननामके आभरणे शोभते, प्रकाशते. तादृशं शिरोरत्नं कृशाङ्गी, कृशकाया जाता सीता, सा कृशाङ्गी दत्तवती तं शिरोरत्नम् आदाय, स्वीकृत्य तां प्रणतिपूर्वकं प्रणामपूर्वकं प्रस्थितवान् ततस्थे. यदा सः चूडामणिं स्वीकृत्य एवं प्लवनार्थं हस्तम् अग्रे कृत्वा, भुजम् अग्रे कृत्वा स्थितवान्, तदा कथं दृश्यते स्म आञ्जनेयः इत्युक्ते उरगः इव, तस्य बाहुः सर्पः इव दृश्यते. सर्पस्य केशान् केषुचित् सर्पेषु तेषां मुखे वदने रत्नं भवति, तेन रत्नेन यथा सर्पः सर्पमुखं शोभते तथा सर्पतुल्य बाहु युक्तः आञ्जनेयः तदा शोभते स्म इति कवेः अत्र वर्णनम्. अस्य आकाङ्क्षां पश्यामः. ददौ, ददौ इत्युक्ते दत्तवती. का ददौ? कृशाङ्गी. कृशाङ्गी इति पदप्रयोगः अत्र उचितपदप्रयोगः, यतः तस्याः अन्तः कोपः अस्ति रावणं प्रति. अनन्तरं तस्याः स्वस्याः दशां स्मृत्वा एव सा कविता अस्ति. अतः कृशाङ्गी, कृषकाया सञ्जाता अस्ति कृशाङ्गी. चूडामणिं, कृशाङ्गी कं ददौ? किं दत्तवती? चूडामणिं ददौ, दत्तवती. कीदृशं चूडामणिं ददौ? दशास्य सन्त्रास पुञ्जित ऋषाग्निदशं चूडामणिं. दशास्य नाम रावणः. दशा, दश आस्यानि यस्य सः. दशास्य सन्त्रास, सन्त्रासः इत्युक्ते भयम्. रावणात् या भीतिः, यत् भयमासीत् तस्मात् भयात् सञ्चितं, सञ्चितः कोपः तस्य, भयमेव कोपरूपं स्वयकरो. अतः सन्त्रासात् भीतितः पुञ्जित, पुञ्जित इत्युक्ते सङ्गृहीत कोपाग्नि दशा, कोपाग्निः प्राप्नोत् तादृशं चूडामणि. कस्य ददौ? कस्मै दत्तवती? कपिवरस्य. द्वितीयं क्रियापदमस्ति प्रतस्थे, प्रस्थितवान्. कः प्रतस्थे? असौ आञ्जनेय. असौ किं कृत्वा प्रतस्थे? आदाय, स्वीकृत्य प्रतस्थे. कम् आदाय? तं चूडामणिम् आदाय. कथम् आदाय? प्रणतिपूर्वकं, नमस्कारपूर्वकम्, आदरेण. कीदृशः सन् प्रतस्थे? माणिक्य गर्भवदनोरग तुल्यबाहुः सन् प्रतस्थे. अस्य अन्वयः भवति दशाङ्गी कपिवरस्य दशास्य सन्त्रास पुञ्जित ऋषाग्निदशं चूडामणिं ददौ. असौ तं मणिं प्रणतिपूर्वम् आदाय माणिक्य गर्भवदनोरग तुल्यबाहुः सन् प्रतस्थे. भावार्थः भवति विरहव्यथया कृषकाया सीतादेवी श्रीरामसकाशे प्रेषणाय हनूमतः शिरोरत्नं प्रायच्छत्. तत् शिरोरत्नं न केवलम् अभिज्ञानभूतमासीत्, इति रावणात् या भीतिः तस्याः उद्दीप्तकोपाग्नेः प्रतीकरूपम् आसीत्. हनुमान् तं चूडामणि सीता सकाशात् नमस्कारपूर्वकं ततः प्रस्थितः. तदा करतले स्थितस्य मणेः कारणेन तस्य बाहुः तादृशः सर्पः इव दृश्यते. यस्य सर्पस्य वदनस्य अर्थः मणिः विलसति इति एतस्य भावः. चूडामणिम् आदाय सः प्रस्थितवान्. अग्रे किमस्ति गद्यभागः. ततः कृतकृत्य एव निर्गत्य,
ततः कृतकृत्य एव निर्गत्य
निशाचरपतेः,
निजागमनं निशाचरपतेः
प्रकाशयितुं,
प्रकाशयितुं
ततः. तदनन्तरं कृतकृत्यः, यः करणीयं कृतवान्, साधितवान्, सः कृतकृत्यः भवति. यः स्वेन साधयितुं स्वेन यद् साधनीयम् आसीत् तत् साधितवान् सः कृतकृत्यः भवति. अत्र आञ्जनेयस्य कार्यं किम्? दूत रामदूतं दूतः भूत्वा अत्र आगतवान्, सीतादेवीं दृष्ट्वा अङ्गुलीयकं प्रदाय चूडामणिम् आदाय प्रस्थितः. अतः आगमनस्य कार्यं साधितम्, अतः कृतकृत्यः आञ्जनेयः कृतकृत्यः भूत्वा एव निर्गत्य ततः निर्गत्य निज आगमनं स्वस्य आगमनं निशाचरपतेः प्रकाशे रावणः जानातु. अत्र रामदूतः आगतवान् आसीत् आगतवान् अस्ति जानातु प्रकाशयितुं. रावणः जानातु इति ध्या इति बुद्ध्या किं कृतवान्? अशोकवनिकां बभञ्ज, अशोकवनं नाशितवान्. कः बभञ्ज? कः एवम् अशोकवनिकां नाशितवान्? प्रभञ्जनात्मजः. प्रभञ्जनः नाम वायुः, वायुपुत्रः प्रभञ्जनात्मजः. प्रकर्षेण भञ्जयति वृक्षादीन् इति प्रभञ्जनः. वायुः यदा बहु चण्डमारुतः भवति तदा वृक्षाः अपि पतन्ति खलु, तस्य नाम प्रभञ्जनः. सरलः एव अस्य भावार्थः. सीतासकाशात् प्रस्थितः मारुतिः साधित स्व आगमनप्रयोजनः सन्, आगमनस्य यत् प्रयोजनम् आसीत् तद् साधितवान् अस्ति. तादृशः सः ततः अशोकवनिकातः सीतासकाशात् पुनः रामदूतोऽयं जनः इह लङ्काम् आगतवान् अस्ति इति सूचनां राक्षसराजः अपि प्राप्नुयात् इति मतिं कृत्वा निश्चयं कृत्वा अशोकवनमेव उद्घाटितवान् नाशितवान्. अत्र निशाचरपतेः इति पदमस्ति, पश्यतु पतिशब्दस्य रूपम् अपि पश्यामः. निशाचरपतेः इति समस्तपदे कथं रूपम् इति अपि पश्यामः. पतिशब्दस्य षष्ठीविभक्तिरूपं किं भवति? पत्युः इति षष्ठी एकवचनं. पतिः, पती, पतयः, पतिं, पती, पती, पत्या, पतिभ्याम् इति भिन्नं हरिशब्दतः भिन्नः अयं शब्दः एतस्य रूपं. किन्तु समासान्ते पतिशब्दः हरिशब्दवत् व्यवहरति. अतः एव हरेः इति षष्ठी एकवचनरूपं यथा, तथैव निशाचरपतेः इति रूपम्. पतिशब्दः पृथक् तिष्ठति चेत् पत्युः इति षष्ठी एकवचनरूपं, समासान्ते तिष्ठति चेत् हरिशब्दवत् एतस्य रूपं भवति. निशायां चरन्ति इति निशाचराः, निशाचराणां पतिः स्वामी निशाचरपतिः तस्य. अग्रिमं श्लोकं पठामः. स्वकृत्यैः शाखानाम् अवनतिम् अतीव प्रकटयन्.
स्वकृत्यैः शाखानाम् अवनतिम् अतीव प्रकटयन्.
परिकलितभङ्गः सुमनसाम् द्विजानां सन्त्रासम्
द्विजानां सन्त्रासम्
श्रुतिमधुरवाचां विरचयन्
श्रुतिमधुरवाचां विरचयत्
दशवदनलीलां पठनुत. किमर्थम् आञ्जनेयः अशोकवनिकां नाशितवान्? तस्य उद्देशः कः? एकं तु రావణః జానీయాత్ యదా కోపి ఏతాదృశం ధ్వంసనం కరోతి తదా ఏవ అన్యే రాక్షసాః అపి తం పశ్యంతి. అనంతరం రావణం స్వామినం గత్వా వదంతి, తదా స్వామి వదంతి తం గృహీత్వా అత్ర ఆనయంతు ఇతి వదంతి, తదా సాక్షాత్ రావణేన సాక్షాత్కారః భవతి ఇతి ఏకః ఉద్దేశః. అత్ర ద్వితీయః ఉద్దేశః యద్ యద్ రావణం యత్ కుకృత్యం రావణః ఆచరితవాన్ తదేవ ఆంజనేయః కరోతి స్మ తావదేవ ఇతి కవిః వదతి. స్వకృత్యైః స్వకర్మభిః కిం కిం కృతవాన్ ఏతత్ సర్వం కృతవాన్, శాఖానాం అవనతిః అవనతిం కారితవాన్, అనంతరం పక్షిణాం భయం కారితవాన్, పుష్పాణాం మర్దనం కృతవాన్, అనంతరం ఏవం లంకాయాః ఉద్యానే ఆంజనేయః దశవదన లీలామేవ అతనుత. దశవదన దశముఖ రావణస్య లీలామేవ అకరోత్. రావణః కిం కిం అకరోత్ ఇత్యుక్తే వయం జానీమః రావణః దుర్మార్గే ప్రస్థితః అతః అమార్గేణ భ్రామ్యన్ ఇతి. ఆంజనేయః అపి యేన మార్గేణ గంతవ్యం తం మార్గం త్యక్త్వా అత్ర అశోకవనికాయామేవ అటన్ పర్యటన్ సర్వం నాశితవాన్. అతః అత్ర ఏషః శ్లోకః శ్లేష బహుళ శ్లోకః అస్తి. ప్రాయః ప్రతిపదమపి ఆంజనేయ పక్షే ఏకమర్థం సూచయతి, అపరస్మిన్ రావణ పక్షే అన్యమర్థం సూచయతి. అతః ఏతం శ్లోకం వయం సావధానం శృణుమః చేత్ రసకరః అపి అస్తి, అర్థద్వయం సర్వత్ర ప్రాయః సర్వత్ర భవతి. అనంతరం పరోక్షతయా రావణః యద్యద్ కృతవాన్ పరోక్షతయా తద్ కృత్వా ఆంజనేయః తస్య అనుకరణమేవ అకరోత్ ఇతి కవిః వదతి. పదచ్ఛేదం పశ్యామః. స్వకృత్యైః శాఖానాం అవనతిం అతీవ ప్రకటయన్ అమార్గేణ భ్రామ్యన్ పరికలిత భంగః సుమనసాం ద్విజానాం సంత్రాసం శృతిమధుర వాచాం విరచయన్ అయం కల్పోద్యానే దశవదన లీలాం అతద్భుతం. అత్ర ప్రతిపదార్థం అహం ఆకాంక్షాయాః అనంతరం వదామి. నేను ఇతోపి అత్ర శ్లేష బహుళ శ్లోకః అస్తి ఇతి కారణేన అగ్రే అవగంతుం తత్ర క్లేశాయ న భవేత్ ఇతి కృత్వా అహం అనంతరం లిఖితవతీ అస్మి. ఆకాంక్షాం పశ్యామః. క్రియాపదమస్తి అతనుత. అతనుత ఇత్యుక్తే అకరోత్. కః అకరోత్? అయం హనుమాన్. అయం కాం అతనుత? లీలాం దశవదన లీలాం రావణ కృత్యం. రావణం రావణః యద్ కృతవాన్ తామేవ క్రీడాం ఏషః అపి కృతవాన్. కైః లీలాం కరోతి? స్వకృత్యైః స్వకర్మభిః. కృతవాన్ లీలాం లంకాయా ఉద్యానే లంకోద్యానే. కిం కుర్వన్? ప్రకటయన్ శాఖానాం అతీవ అవనతిం ప్రకటయన్. యదా హనుమాన్ శాఖాత్ వృక్షస్య శాఖాతః అన్యం అన్యాం శాఖాం ప్రతి కూర్దతే ప్లవతే తదా శాఖాః అవనతాః భవంతి కిల భగ్నత్వం ప్రాప్నువంతి అధో ముఖాః భవంతి. అతః శాఖానాం అవనతిం కారయన్. పునః కిం కుర్వన్? అమార్గేణ భ్రామ్యన్ తేన సాక్షాత్ చూడామణిం గృహీత్వా ఆకాశమార్గేణ అశోక వనికాతః బహిః గత్వా పునః లంకాతః బహిః గత్వా సాగర మార్గేణ ఉపరి ఆకాశమార్గేణ తేన గంతవ్యమాసీత్. కింటు అమార్గేణ భ్రామ్యన్ మార్గాంతరం స్వీకృత్య తత్రేవ అశోకవనికాయాం అటన్ సహ నాశితవాన్ కిల అతః అమార్గేణ భ్రామ్యన్. కేవలం ఆంజనేయస్య పక్షే ఏవ వదంతి అస్మి. యదా అర్థం పశ్యామః తదా రావణపక్షే ఏతత్ సర్వమపి కథం अर्थसङ्गतं भवति इत्यपि द्रक्ष्यामः. कथं भूतः सन् सुमनसां परिकलितभङ्गः सन्. सुमनाः इत्युक्ते बहवः अर्थाः भवन्ति. एकं पुष्पम् इत्यर्थः. यदा वृक्षाणां कम्पनं भवति, धूसरं भवति, तदा पुष्पाणि पतन्ति, तेषां विमर्दः भवति, तेषां विमर्दनं भवति. अतः सुमनसां परिकलितभङ्गः, तेषां मर्दनं, तेषां नाशनम् अभवत्. पुनः किं कुर्वन् आञ्जनेयः अटितवान् तत्र, द्विजानां सन्त्रासं विरचयन्. पक्षिणः वृक्षेषु वृक्षाणां शाखासु निवसन्ति, तेषां क्रीडानि तत्र भवन्ति. यदा एषः तथा भञ्जयामः स, तदा द्विजानां पक्षिणां भयं कारयन्. पक्षिणः कलरवं कृत्वा उच्चैः शब्दं कुर्वन्तः इतस्ततः डयन्ते स्म. कीदृशानां द्विजानां श्रुतिमधुरवाचां. सामान्यतया द्विजाः इत्युक्ते विप्राः, पक्षिणः, दन्ताः इति बहवः अर्थाः. पक्षिणः सामान्यतया तेषां शब्दः, तेषां ध्वनिः कथं भवति? श्रुतिमधुरः. किन्तु इदानीं तेषां भीतितः आक्रन्दनं श्रूयते. अतः श्रुतिमधुरवाचां द्विजानां पक्षिणां भयं कारयन्. इदानीम् अन्वयं पश्यामः. अयं हनुमान् लङ्कोद्याने स्वकृत्यैः शाखानाम् अतीव अवनतिं प्रकटयन्, अमार्गेण भ्राम्यन्, मनसां परिकलितभङ्गः सन्, श्रुतिमधुरवाचां द्विजानां सन्त्रासं विरचयन्, दशवदनलीलाम् अतनुत. प्रतिपदार्थः भवति अयम् एषः हनुमान् लङ्कोद्याने अशोकवाटिकायाम्. इदानीं वयं श्लेषं पश्यामः, कथं रावणपक्षे अपि अर्थः भवति. स्वकृत्यैः, कृत्यम् इत्युक्ते कर्म. आरुतिः किं कृतवान्? आरुतिपक्षे, आञ्जनेयस्य पक्षे कूर्दनप्लवनादि व्यापारैः, इतस्ततः कूर्दमानः, प्लवमानः सः यदा अटितवान् तदा वृक्षाः ध्वस्ता. स्वकृत्यैः इति आञ्जनेयपक्षे. रावणपक्षे वेदविरुद्ध आचरणेन, सर्वं शास्त्रविरुद्धम् आचरितवान्, दुर्मार्गे सः प्रस्थितः. अतः स्वकृत्यैः. शाखानाम् अवनतिम् अतीव प्रकटयन्, एतद् आञ्जनेयपक्षे वृक्षशाखानाम् अवनतिं, मुग्नत्वं, शाखानाम् अधः आनयनं प्रापितकारितवान्. रावणपक्षे शाखानाम् अवनतिः कथं भवति इत्युक्ते वेदशाखानां ह्रासं कारयन्. वेदशाखानां, वेदादि शाखानां ह्रासं कारयन्. रावणस्य राज्ये सः यद् चिन्तयति तदेव भवति. शास्त्रं यद् वदति तद् न, एषः यद् वदति तदेव शास्त्रं, मम एव शासनं इति अनुपालनीयम् एतस्य आज्ञा भवति. अतः तादृश असुरस्य आश्रये यदा विप्राः भवन्ति, ते अपि अनन्यगतिकतया स्वामी यद् वदति तदेव ते अपि गायन्ति. तेन किं भवति? वेदस्य एव यद् स्थानं भवति तद् किञ्चित् किञ्चित् नष्टं भवति. श्रीभगवान् भगवद्गीतायामपि प्रथम श्लोके चतुर्थ अध्याये वदति, इमं विवस्वते लोकं प्रोक्तवान् अहम् अव्ययम्, विवस्वान् मनवे प्राहः मनु इक्ष्वाकवे अब्रवीत्. किन्तु किम् अभवत्? स कालेन महता नष्टः योगः परन्तु. कालेन एतादृश हिरण्यकशिपु रावणसदृश कुशासने अपि नाशः भवति धर्मस्य, ज्ञानस्य, शास्त्रस्य. कदाचित् परम अन्धकारः भवति, गाढः अन्धकारः, अज्ञानवशात् जनानां जडत्वं भवति, तदापि नाशः सञ्जायते. एवं रावणस्य शासने वेदानां ह्रासः जातः. कथम् इति शाखानां विषये वदति. पुनः अमार्गेण ब्राह्म्यन् एतद् अवगन्तुं शक्नुमः. आञ्जनेयः अगम्यस्थलेषु तत्रैव सञ्चर. रावणपक्षे किं भवति, लोकविरुद्धमार्गे गच्छन् स्मनसां परिकलितभङ्गः. सुमनाः इत्युक्ते पुष्पं, देवाः इति अर्थः, पण्डिताः अर्थत्रयं. सुमनाः पुष्पम् इत्यस्य स्त्रीलिङ्गशब्दः भवति, देवाः पण्डिताः इत्यस्य पुल्लिङ्गशब्दः. सुमनाः, सुमनसौ, सुमनसः. आञ्जनेयपक्षे किं कृतवान्, अशोकवनिकायां विद्यमानपुष्पाणां विमर्दकः सः आसीत्, पुष्पाणां मर्दनं कृतवान्. रावणः किं कृतवान्, देवानामेव उद्वेजनं कारितवान्. देवानाम् उद्वेगः जातः एतस्य भय, एतस्मात् भीताः सर्वे अपि देवाः भयग्रस्ताः अभवन्. अतः सुमनसां देवानां च पण्डितानां च परिकलितभङ्गः, तेषां विघ्नतां कारितवान्, तेषां पीडनम् अकरोत्. पुनः श्रुतिमधुरवाचां द्विजानां सन्त्रासं कुर्वन्. आञ्जनेयपक्षे किं भवति, श्रवणसुखं शब्दं कुर्वन्ति किल पक्षिणः, तेषां पक्षिणां भीतिं कारितवान् आञ्जनेयः. ततः सञ्चरन् अशोकवनिकां ध्वंसयत्. रावणपक्षे किं भवति, सुस्वरं वेदपाठं ये कुर्वन्ति. श्रुति, श्रुति इत्युक्ते कर्णः इति शरीरङ्गमपि भवति, श्रुतिः इत्युक्ते वेदाः इति अपि भवति. अतः आञ्जनेयपक्षे श्रुतिमधुरवाचां द्विजानां, द्विजाः इत्युक्ते अर्थत्रयं भवति, द्विः जायन्ते इति द्विजाः, विप्राः ब्राह्मणाः एक अर्थः. तृतीय अर्थः भवति पक्षिणः, कारणं प्रथमम् अण्डजाः भवन्ति, अनन्तरं तेषां अण्डतः पक्षी भवति, द्विजाना, द्विजाः इति पक्षिणः भवति. तृतीयः अर्थः दन्ताः, दन्ताः अपि बाल्ये एकवारं पतन्ति पुनः भवन्ति किल, अतः दन्तानामपि द्विजः इति अर्थः. अत्र अर्थद्वयम्, एकम् आञ्जनेयपक्षे द्विजाः इत्युक्ते पक्षिणः, रावणपक्षे द्विजाः इत्युक्ते विप्राः, वेदपाठकाः, ब्राह्मणाः. आञ्जनेयः किं कृतवान्, पक्षिणां भयं कारितवान्, वेदानां, वेदज्ञानस्य एव तिरस्कारं कुर्वन् सः वेदपाठकानां, ब्राह्मणानां भयं कारितवान्, सन्त्रासं भयं कारयति. ईदृशानां विप्राणां श्रुतिमधुरवाचां, वेद, वेदस्य मधुर वचनानां ये गायनं कुर्वन्ति, गानं कुर्वन्ति, तादृशानां द्विजानां भयं कारयन्. अयं हनुमान् दशवदनलीलां अतन्त, रावणकृत्यमेव इव किञ्चित् कृत्यम् अत्र सः अकरोत् इति. अत्र शाखाः इति पदमस्ति, वृक्षशाखाः इति एकः अर्थः. द्वितीयशाखाशब्दस्य श्लेषे कः अर्थः इत्युक्ते, कठ, कौतुकम् आदि वेदशाखाः भवन्ति. पुनः श्लेषे सुमनाः इति अर्थः, सुमनाः इत्युक्ते पुष्पाणि, मालतीपुष्पम् इति अपि भवति, स्त्रीलिङ्गे भवति. देव अथवा पण्डितः इत्यर्थे पुल्लिङ्गे भवति. सुमनाः, सुमनसौ, सुमनः. श्रुतिः इति शब्दस्यापि श्लेषे अर्थद्वयम्, एकं तु श्रोत्रं शरीराङ्गं, द्वितीयं वेदः आम्नायः तथैव द्विजाः इत्युक्ते दन्ताः विप्राः पक्षिणः इति द्विजशब्दस्य अर्थत्रयं भवति अतः श्लेष बहुल श्लोकेन अनेन वयम् अद्य विरमामः एतस्य श्लोकस्य किञ्चित् पुनस्मारणं कुर्वन्तः एव अग्रे वयम् अग्रिमवर्गे पठनस्य शान्तिमन्त्रम् उक्त्वा सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे पश्यन्तु मा कश्चित् दुःखभाक् भवेत् शान्ति शान्ति सर्वेषां शुभरात्रिः
शुभरात्रिः धन्यवादः।